तत् यथा स्थबिरेण च सारिपुत्रेण महामौद्गल्यायनेन च महाकश्यपेन च महाकप्फिनेन च महाकात्यायनेन च महाकौष्ठिलेन च रेवतेन च शुद्धिपन्थकेन च नन्देन च आनन्देन च राहुलेन च गवांपतिना च भरद्वाजेन च कालदायिना च बकुलेन च निरुद्धेन च चा।